हेयं वदन्ति शिवमेव हि केचिदन्ये शक्तिं गणेशमपरे तु दिवाकरं वै रूपैस्तुतैरपि विभासि यतस्त्वमेव तस्मात्त्वमेव शरणं मम शङ्खपाणे तस्मात्त्वमेव शरणं मम शङ्खपाणे सोदरो न जनको जननी न जाया नैवात्मजो न च कुलं विपुलं बलं वा सन्दृश्यते न किल कोऽपि सहायको मे तस्मात्त्वमेव शरणं मम शङ्खपाणे तस्मात्त्वमेव शरणं मम शङ्खपाणि नोपासिता मदमपास्य मया महान्तस् तीर्थानि चास्ति कधिया नहि सेवितानि देवार्चनं च विधिवन्न कृतं कदा तस्मात्त्वमेव शरणं मम शङ्खपाणे तस्मात्त्वमेव शरणं मम शङ्खपाणे दुर्वासना मम सदा परिकर्षयन्ति चित्तं शरीरमपि रोगगणादहन्ति सञ्जीवनं च पपहस्तगतं सदैव तस्मात्त्वमेव शरणं मम शङ्खपाणि तस्मात्त्वमेव शरणं मम शङ्खपाणि कृतानि दुरितानि मया तु यानि स्मृत्वाखिलानि हृदयं परिकम्पते मे ख्याता च ते पतितपावनता तु यस्मात् तस्मात्त्वमेव शरणं मम शङ्खपाणि तस्मात्त्वमेव शरणं जरा जननजं विविधाश्च रोगा काकश्वसूकरजनिर्निरये च पात त्वद्विस्मृते फलमिदं विततं हि लोके तस्मात्त्वमेव शरणं मम शङ्खपाणि तस्मात्त्वमेव शरणं मम शङ्ख पाणि नीचोऽपि पापवलितोऽपि विनिन्दितोऽपि ब्रूयात् वाहमिति यस्तु किलैकवारं तं यच्छसीश निजलोकमिति व्रतं ते तस्मात्त्वमेव शरणं मम शङ्खपाणि तस्मात्त्वमेव शरणं मम शङ्खपाणि वेदेषु धर्मवचनेषु तथागमेषु रामायणेऽपि च पुराणकदम्बके वा सर्वत्र सर्वविधिना गदितस्त्वमेव आत्मात्वमेव शरणं मम शङ्खपाणि तस्मात्त्वमेव शरणं मम शङ्खपाणि तस्मात्त्वमेव शरणं